ब्रह्मदैवं ब्रह्ममयं सर्वं ब्रह्ममयं वचनीयं किमवचनीयं
किमवचनीयं
किमरचनीयं किं पठनीयं
किम श्रोतव्यम्
किम श्रोतव्यम्।